एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दहालः राष्ट्रिय सभायाः ह्यस्तनोपवेशेन सर्वकारस्य आगामिनः आर्थिक वर्षस्य नीति कार्यक्रमाः बहुमतेन पारितकृताः वर्तन्ते। उपवेशेन डाक्टर विमला राई पौड्यालः, शेखर कुमार सिंह, भगवती न्यौपाने इत्येतैः सदस्यैः पृथक् पृथक् प्रस्तुतः नीति कार्यक्रमाणां संशोधनस्य प्रस्तावः बहुमतेन अस्वीकृतोऽस्ति। तत्पूर्वम् उपवेशे नीति कार्यक्रमाणां विमर्शनस्य क्रमे उत्थापितान् प्रश्नान् प्रधानमन्त्रिणः पक्षतः उत्तरयन् विधिन्याय संसदीय विषयमन्त्री गोविन्द प्रसाद शर्मा कोइरालः अवोचत् संघीयतायाः रक्षणं, विकासः, राष्ट्रिय सुशासनञ्च सर्वकारस्य दायित्वं वर्तते। मन्त्री शर्मा अवासत नीति कार्यक्रमैः कृषि, पर्यटन, यातायातोर्ज क्षेत्रेभ्यः महार्घस्य नियन्त्रणाय च प्राथमिकता प्रदत्तास्ति। मन्त्री शर्मा अवोचत् सर्वकारेण राष्ट्रे रासायनिक मलस्य उद्योगस्य स्थापनायै गृहकार्यं विधीयमानमस्ति। सार्वजनिक व्यय व्यवस्थापनं परिणाममुखी विधातुं प्रचलित क्रयणेन सम्बद्धस्य विधेः सुधारः नीति कार्यक्रमैः समाविष्टश्च वर्तते। तत्पूर्वं नीति कार्यक्रमान् आश्रित्य विहिते विमर्शने प्रतिपक्षिदलस्य सांसदाः अनुदानेन सह सप्तसु एव प्रदेशेषु प्राङ्गारिकमलोद्योगस्य सञ्चालनाय आपूर्तिं सहजीकृत्य अनुदानं वर्धयितुं याचनया सह वित्तीय हस्तान्तरणस्य विषय विरोधाभासपूर्णो वर्तते। बुढीगण्डकीया योजनायाः सर्वकारेण प्रपूरणीयानाम् अन्यासाम् आयोजनानां च नैजक्षेत्राय प्रदानस्य विषय सान्दर्भिको नास्तीति च धारणा व्यक्तवन्तः। प्रतिनिधि सभायाम् आगामिनः आर्थिक वर्षस्य वार्षिक नीति कार्यक्रमान् आश्रित्य नैरन्तरेण विमर्शनम् इह द्वितीय दिनेऽपि अचलत्। विमर्शने भागं गृह्णन् प्रमुख प्रतिपक्षिणो नेकपा एमाले दलस्य नेता ईश्वर पोखरेल सर्वकारस्य नीति कार्यक्रमाः राष्ट्रम् अग्रे वर्धयितुं समर्थाः न सन्तीति टिप्पणीम् अकरोत्। सत्तापक्षस्य सांसदः नेकपा एकीकृत समाजवादी दलस्य अध्यक्षश्च माधव कुमार नेपालः भ्रष्टाचारस्य जालं त्रोटयित्वा राजनीतौ विहितायं सत्यं राष्ट्रेण समृद्धि अधिगम्यते इति धारणाम् उपस्थापयत्। असौ नीति कार्यक्रमाः समग्रतः उचिताः सन्तीति भासमाणः परामर्शनं गृहीत्वा अनुकूलदिशि अग्रे वर्धनाय बलं प्रादात्। एवमेव सत्तापक्षस्य सांसदौ ओन्सरी घर्ती, मिनेन्द्र रिजालश्च संसद कुण्ठाक्रोशयोः स्थलं नास्तीति विचर्च्य राष्ट्रस्य विकासाय सत्तापक्षस्य प्रतिपक्षस्य च मध्ये सहकार्याय बलं प्राददताम्। विमर्शने सांसदः राजेन्द्र महतो नीति कार्यक्रमान् आश्रित्य विहितं विमर्शनम् औपचारिकमेवास्तीत्यतः जनतां न वञ्चयितुं परामृशत्। तत्पूर्वं प्रतिनिधिसभायाः ह्यस्तनोपवेशे विशेष समयं गृहीत्वा उद्योग वाणिज्यापूर्ति मन्त्री दिलेन्द्र प्रसाद बडु प्रमुख प्रतिपक्षिणो नेकपा एमाले दलस्य नेत्रा प्रयुक्ताः शब्दाः तथ्यहीनाः निराधारश्च सन्तीति निगद्य आपत्तिं प्रकटितवान्। मन्त्री बडु शिलातैलीय पदार्थानां मूल्यवृद्धेः, नेपाल तैल निगमस्य च विषयेषु प्रमुख प्रतिपक्षी दलस्य नेत्रा प्रदत्ताभिव्यक्ति प्रमाणहीनास्तीति समस्पष्टयत। तदनु प्रमुख प्रतिपक्षी दलस्य सांसदैः मन्त्रिणः बडु इत्यस्य टिप्पणीं प्रति असहमतिं प्रकटयित्वा उपवेशे विरोधः प्रकटितः आसीत्। गृहमन्त्री बालकृष्ण खाँड वदति दण्डहीनता मानवाधिकाराणां हननञ्च न सह्येते। राष्ट्रिय मानवाधिकारायोगस्य द्वाविंशतितमस्य वार्षिकोत्सवस्य अवसरे ह्यो ललितपुरे आयोजिते कार्यक्रमे मन्त्री खाँड अवदत् मानवाधिकारायोगस्य स्वतन्त्रतायै स्वायत्ततायै च सर्वकारः प्रतिबद्धो वर्तते। द्वन्द्वकाले घटितानां घटनानां कारणेन बहवो जनाः पीडिताः सन्ति। संक्रमणकालीन संयन्त्रस्य माध्यमेन यथाशीघ्रं पीडितानां जनानां उद्धाराय सर्वकारः तत्परोऽस्तीति च मन्त्री खाँड अवोचत्। नेकपा माओवादी केन्द्रस्य अध्यक्ष पुष्पकमल दाहाल प्रचण्ड कथयति साहित्यकारेण कृष्णसेनेन जनपक्षीय पत्रकारितायै प्रगतिवादी सांस्कृतिकान्दोलनाय च विहितं योगदानम् उच्चैः वर्तते। पत्रकारस्य, साहित्यकारस्य च कृष्णसेन इच्छुकस्य विंशतितमस्य स्मृतिदिवसस्य अवसरे ह्य काष्ठमण्डपे आयोजिते कार्यक्रमे अध्यक्ष प्रचण्ड अवदत् लेखन्याः माध्यमेन कृष्णसेनेन नेपालस्य राजनैतिक परिवर्तने विशेष भूमिका निर्विडा वर्तते। उत्पत्न्या हत्यायाम् आजन्म कारावासनस्य दण्डनम् निर्धारितः सशस्त्र प्रहरिणः पूर्व प्रहरी नायब महानिरीक्षकः रंजन कोइराला ह्य काष्ठमण्डपस्य वानेश्वर स्थानात् निगृहीतो वर्तते। विदेहे परामर्शनस्य अवस्थायाम् कोइराला निगृहीतः इति उपत्यका अपराधानुसन्धान कार्यालयस्य प्रमुख प्रहरी वरिष्ठ परीक्षकः वसन्त बहादुर कुमारः ज्ञापितवान्। एतस्य अनुसारेण दिनद्वयम् अवकाशोस्तित्यतः कारावासन निर्णयनस्य क्रियान्वयनाय परश्व सोमवासरे न्यायालये कोइरालायं प्रस्तुष्यते। परह्यः बृहस्पतिवासरे सर्वोच्च न्यायालयेन अस्मै आजन्म कारावासनस्य दण्डनं श्रावितम् आसीत्। सप्तसप्तत्यधिकद्विसहस्रतमे विक्रमवर्षे कोइराला अष्टानां वर्षाणां कारावासनं व्यतीत्य कारावासाद् न्यायालयस्य आदेशानुसारेण मुक्तः आसीत्। कोइराला इत्यनेन अष्टषष्ट्यधिकद्विसहस्रतमे विक्रमवर्षे पत्न्या गीता ढकालस्य हत्या विहिता आसीत्। रूपन्देही जनपदस्य तिलोत्तमा नगरपालिकायाः प्रमुखपदे गठबन्धनस्य पक्षतः नेपाली कांग्रेस दलस्य रामकृष्ण खाँड विजयी सम्मृतो वर्तते। एवमेव उपप्रमुखपदे नेकपा एमाले दलस्य जागेश्वरी चौधरी निर्वाचितास्ति। काष्ठमण्डप महानगरपालिकायाः नवनिर्वाचितः प्रमुखः बालेन्द्र शाह घोषयति काष्ठमण्डपं विश्वस्य सुन्दरम् उत्कृष्टम् च नगरम् निर्मात्स्यामि। ह्य राष्ट्रिय सभागृहे आयोजिते निर्वाचन परिणाम घोषणा कार्यक्रमे प्रमुखः शाह अवदत् निर्वाचनात् पूर्वं विहिताम् प्रतिज्ञाम् परिपूर्य पञ्चवर्षीयम् कार्यकालम् समीचीनतया यापयिष्यामि। स्थानीय स्तराणां निर्वाचने आचार संहितायाः विपरीततया बालबालिकानां प्रयोगः दृष्टोस्ति। बालबालिका शान्ति क्षेत्र राष्ट्रियाभियान नेपालस्य प्रतिवेदनस्य अनुसारेण पञ्चदशाधिक शतोत्तरेषु स्थानेषु विदेह उल्लङ्घनेन सह बालबालिकाः प्रयुक्ताः सन्ति। स्वास्थ्य मन्त्रालयस्य अनुसारेण आविश्वम् दृश्यमानस्य मंकी पक्ष रोगस्य नेपालेपि संकटो वर्तते। मन्त्रालयस्य सहप्रवक्ता डाक्टर समीर कुमार अधिकारी नेपालेपि एतस्य रोगस्य प्रसरणस्य सम्भावना अस्तित्यतः सर्वैः सचेष्टै भाव्यमिति सावधानी कृतवान्। नैज विद्यालयानां सञ्चालकैः रविवासरे सार्वजनिकावकाश प्रदानस्य निर्णयं प्रत्यावर्तयितुं सर्वकारः अभियाचितोस्ति। राष्ट्रिय नैजावासीय विद्यालय एसोसिएशन नेपाल संगठनेन ह्य काष्ठमण्डपे पत्रकार सम्मेलनम् आयोज्य सम्बद्ध पक्षैः विमर्शनेन विनैव सर्वकारेण विहितेन रविवासरे सार्वजनिकावकाशस्य निर्णयेन विद्यार्थिनां शिक्षणे प्रभावः सृष्टोस्तीति हेतोः निर्णयमं तत्कालं प्रत्यावर्तयितुम् अनुरुद्धमस्ति। पत्रकार सम्मेलने नैज विद्यालयानां संघटनस्य अध्यक्षः पाण्डव हमालः सर्वकारस्य रविवासरे सार्वजनिकावकाश प्रदानस्य निर्णयः वैज्ञानिको नास्तीति हेतोः संघटनेन संघ प्रदेश जनपद पालिका समितीनां सदस्य विद्यालयेभ्यः पूर्ववत् विद्यालयान् सञ्चालयितुं निर्दिष्टमस्तीति अज्ञापयत्। अधिकार दुरुपयोगानुसन्धानायोगेन मार्ग निर्माण सम्बद्धे अनुबन्धने अनियमिततां विधाय कोटि चतुष्टयं षोडश लक्षाणि चेत्यस्मादपि अधिकं वित्तं भ्रष्टाचरितमित्यारोपे कैलाली जनपदस्य गोदावरी नगरपालिकायाः प्रमुख प्रशासकीयाधिकृतेन खेमराजविष्टेन देवराज जोशिना च सह अष्टादशानां जनानां विरूद्धे ह्य काष्ठमण्डपवर्तिनी विशेष न्यायालये आरोपपत्रं पञ्जीकारितं वर्तते। आयोगेन ह्य विशेष न्यायालये पृथक् पृथक् आरोपपत्रत्रयं पञ्जीकृत्य विष्टेन जोशिना च सहितानाम् अष्टादशानां विरूद्धे भ्रष्टाचरित हानिवित्तेन सह दण्डनम् अभियाचितम् अस्तीति आयोगस्य प्रवक्त्रा श्यामप्रसाद भण्डारिणा प्रकाशितायं विज्ञप्तौ उल्लिखितं वर्तते। नेपाल भारतयोः नागरिकाणां गमनागमनस्य सहजतायै महाकाली नद्याः उपरि दौ दोला सेतु निर्मितौ स्तः। व्यासग्राम पालिकायाः षष्ठवडा क्षेत्रस्य बडुगाउँ स्थाने एवमेव मल्लिकार्जुन ग्राम पालिकायाः षष्ठवडा क्षेत्रस्य बाकुस्थाने दोला सेतोः निर्माणानन्तरं स्थानीयवासिनः हर्षिताः सन्ति।